एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम प्रवाचक चन्द्रकान्त पौडेल। राष्ट्रपति विद्यादेवी भण्डारी निर्वाचनायोगस्य पदाधिकारी भ्य निर्वाचनस्य सम्बन्धे ह्यः अजानात्। शीतलनिवासे निर्वाचनायोगस्य पदाधिकारी विषय ह्यः सम्पन्ने मेर्ने। राष्ट्रपति भण्डारी वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमाने निर्वाचने मतदातृणां कृते आत्मभिवृत्तेभ्यः प्रत्याशिभ्यः निष्पक्षतया निर्बाधरूपेण च मतदानाधिकारस्य सर्वेभ्यः क्षेत्रेभ्यः सम्मानजनकं वातावरणं निर्मातुं परामृशदिति आयोगेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। निर्वाचनायोगस्य प्रमुखायुक्तः दिनेश कुमार थपलिया निर्वाचनस्य पूर्व कार्यम् अन्तिम चरणे प्राप्तमिति उक्तवान् इति आयोगस्य विज्ञप्तौ उल्लिखितं वर्तते। निर्वाचनायोगेन अस्यैव वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणां निर्वाचनाय आराष्ट्रं मतदानस्थलानि मतदानकेन्द्राणि च निर्धारितानि सन्ति। आयोगेन ह्यः प्रकाशितायां सूचनायां आराष्ट्रं स्थानीय निर्वाचने सहभागिनां मतदातृणां संख्यापि सार्वजनिकृता वर्तते। आयोगेन प्रकाशितायाः सूचनायाः अनुसारेण 21,000 55,000 900 च मतदानकेन्द्राणि 10,000 षट्पञ्चाशदधिकसप्तशतं च मतदानस्थलानि च निर्धारितानि सन्ति। आयोगेन प्रकाशितायां सूचनायां सप्तसु प्रदेशेषु कोटि सप्तसप्ततिर्लक्षाणि 33,000 23,000 च मतदातारः सन्तीति ज्ञापितं वर्तते। प्रधानमन्त्री शेरबहादुर देउवा निगदति सत्तारूढदलानां गठबन्धनं राष्ट्रस्य आवश्यकता वर्तते। मोरङ जनपदीयेन नेपाली कांग्रेसदलेन विराटनगरे ह्यः आयोजितां जनसभां सम्बोधयन् नेपाली कांग्रेसदलस्य सभापतिश्च देउवा राष्ट्रियावश्यकतायाः गठबन्धनं न शंकितुम् अनुरुणत्। नेपाली कांग्रेसदलं कस्मै अपि विश्वासघातं न करोतीति चर्चयन् कांग्रेसदले बहुमतं नास्तीति हेतोः गठबन्धनं आवश्यकमस्तीति सभापति देउवा अतर्कयत्। प्रधानमन्त्री देउवा कतिचिन मित्राणि असन्तुष्टानि सन्ति इत्यतः सर्वान् विषयान् विस्मृत्य निर्वाचने गठबन्धनं सहयोक्तुं कार्यकर्तृन् निरदिशत्। सभापति देउवा विराटनगरस्य विराटराजस्य प्रासादस्य उत्खननेन सह विराटनगरस्य समग्र विकासाय प्रतिबद्धतां व्यक्तवान्। जनसभायां नेपाली कांग्रेसदलस्य वरिष्ठ नेता रामचन्द्र पौडेल लोकतन्त्र संविधानयोः रक्षायै गठबन्धनम् आवश्यकमस्तीत्यतः गठबन्धनं समर्थयितुम् अनुरोधत्। कार्यक्रमे नेपाली कांग्रेसदलस्य महामन्त्री विश्वप्रकाश शर्मा स्थानीय स्तराणां जनप्रतिनिधीनां चयनस्य अभियाने संलग्नो भवितुम् युववर्गम् अनुरोधत। सभायां नेपाली कांग्रेसदलस्य केन्द्रीय सदस्य डाक्टर शेखर कोइराला सुन्दरं समुन्नतं च विराटनगरं निर्मातुं कांग्रेसदलं विजयी कारयितुं सर्वान् अनुरोधत। प्रधानमन्त्री नेपाली कांग्रेसदलस्य सभापतिश्च शेरबहादुर देउवा वदति नेपाली कांग्रेसदलं सदैव लोकतन्त्रस्य संचार स्वतन्त्रतायाः नागरिकाणाम् अधिकाराणां च सुनिश्चिततायै संघर्षरतं वर्तते। नेपाल प्रेस युनियन संघस्य केन्द्रीय पदाधिकारीभिस्सह ह्यः सम्पन्ने मेलने प्रधानमन्त्री देउवा लोकतान्त्रिक शक्तेः परिवर्तनकारी शक्तेश्च सहकार्यं सामयिकं याचनम् अस्तीत्यतः गठबन्धनस्य विजयाय संलग्नाः भवितुं निरदिशत्। मेलने प्रेस युनियन संघस्य अध्यक्षः बद्री सिग्देलः अपि विचारं प्राकटयत्। नेपाली कांग्रेसदलेन स्वस्य भ्रातृसंघाः शुभेच्छुक संस्थाश्च पूर्व निर्धारितम् अधिवेशनं महाधिवेशनं च सम्प्रति स्थगयितुं निर्दिष्टाः सन्ति। दलेन ह्यो विज्ञप्तिं प्रकाश्य स्थानीय स्तराणां निर्वाचनस्य पूर्व कार्याय सक्रियता आवश्यकी अस्तीति हेतोः सम्प्रति अधिवेशनं स्थगयितुम् एवं निर्दिष्टं वर्तते। वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमाने स्थानीय स्तराणां निर्वाचने दलस्य प्रत्याशिनां गठबन्धने विद्यमानैः दलैस्सह विहित समन्वयानां प्रत्याशिनां च पक्षेऽपि सक्रियाः भवितुमपि सर्वे भ्रातृसंघाः शुभेच्छुक संस्थाश्च कांग्रेसदलेन निर्दिष्टाः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन अस्यैव वैशाखस्य त्रिंशे दिवसे स्थानीय स्तराणां सम्पत्स्यमानस्य निर्वाचनस्य दिने कोरोना विषाणोः प्रतिरोधी टीकाकरणं मतदानस्थलेषु आदास्यते। मन्त्रालयेन मतदानकेन्द्रस्य समीपस्थले टीकाकरणकेन्द्रं संस्थाप्य कोरोना विषाणोः प्रतिरोधी टीकाकरणं आदास्यते। मन्त्रालयेन ह्यः आयोजिते पत्रकार सम्मेलने मन्त्रालयस्य प्रवक्ता डा संगीता कौशल मिश्रा अस्यैव वैशाखस्य त्रिंशे दिवसे मतदानकेन्द्रस्य समीपस्थे स्थले टीकाकरणकेन्द्रं संस्थाप्य टीकाकरणाय अवशिष्टेभ्यो जनेभ्यः कोरोना प्रतिरोधी टीकाकरणम् आदास्यते इति ज्ञापितवती। एतस्याः अनुसारेण मतदानस्य पश्चात् 18 वर्षतोऽधिकवयस्केभ्यो जनेभ्यः टीकाकरणस्य प्रथमा मात्रा द्वितीया मात्रा अतिरिक्त मात्रा वा प्रदास्यन्ते। प्रवक्ता डा मिश्रा टीकाकरणस्य प्रथम द्वितीय मात्रा धानाय अतिरिक्त टीकाकरणधानाय च अवशिष्टान् जनान् मतदानाय गमनसमये टीकाकरणधान प्रमाणपत्रं गृहीत्वा गन्तुमपि सर्वान् अनुरोधत्। राष्ट्रिय मानवाधिकार आयोगेन अस्यैव वैशाखस्य त्रिंशे दिवसे स्थानीय स्तराणां सम्पत्स्यमानं निर्वाचनं निष्पक्षं भयरहितञ्च सम्पादयितुं सर्वे अनुरुद्धा सन्ति। आयोगेन ह्य ललितपुरे आयोजिते पत्रकार सम्मेलने सर्वै मतदातृभि निर्वाचनं मतदान केन्द्रं सम्प्राप्य स्वस्य मताधिकार प्रयोगाय अनुकूलं वातावरणं स्रष्टुं सर्वाणि राजनीतिक दलानि प्रत्याशिन निर्वाचनेन सम्बद्धा सर्वे पक्षाश्च अनुरुद्धा सन्ति। प्रधानमन्त्रिण शेरबहादुर देउवाभिदस्य औपचारिक निमन्त्रणायां भारतस्य प्रधानमन्त्री नरेन्द्र दामोदर दास मोदी नेपाल भ्रमणाय आगमिष्यति। आगामिनो ज्येष्ठ मासस्य द्वितीय दिवसे बुद्ध जयन्त्या पावनावसरे भारतीय प्रधानमन्त्री मोदी विश्व सम्पदा सूच्यां सूचीकृतस्य बुद्ध जन्मस्थलस्य भ्रमणाय लुम्बिनीम् आगन्तेति युनेस्को संस्था ज्ञापयति। ऊनविंशत्युत्तर द्विसहस्रतमे ख्रीष्टाब्दे भारतस्य प्रधानमन्त्री पदे निर्वाचनस्यानन्तरं प्रधानमन्त्रिणः मोदिनः प्रथमवारं नेपाल भ्रमणस्य कार्यक्रमः निर्धारितो वर्तते। मायादेवी मन्दिरे दीपं प्रज्वाल्य भारतस्य प्रधानमन्त्री मोदी नेपालस्य प्रधानमन्त्री देउवा च समारोहे सहभागिनौ भविष्यतः। स्वीय प्रथम कार्यकाले मोदी चतुर्वारं नेपाल भ्रमणाय आगतः आसीत्। काभ्रे पलाञ्चोक जनपदस्य रोशी ग्रामपालिकायाः एकादशवडा क्षेत्रवर्तिनी वीपी राजमार्गे ह्यः यानद्वयं परम संघटितं सत् पञ्चजनाः मृताः सन्ति। मृतकेषु सिन्धुली कमलामाई नगरपालिकायाः सप्तम वडाक्षेत्रस्य 33 वर्षीय विक्रमश्रेष्ठः, चतुर्थ वडाक्षेत्रस्य 45 वर्षीय हरिबहादुर बल, सुनकोशी ग्रामपालिकायाः प्रथम वडाक्षेत्रस्य 44 वर्षीय प्रमिला नेपाली, रामेछाप जनपदस्य खाणादेवी ग्रामपालिकायाः अष्टम वडाक्षेत्रस्य 33 वर्षीय सम्झना भूषालः, तस्या 60 वर्षीय पुत्रः संगीता भूषालश्च वर्तन्ते। इति समाचाराः।